षडङ्गन्यासः ॐ मनो ज्योतिरुपतामागत्य बृहस्पतिर्यमिमं तनोपरिषं यगुम्पमिमन्दडातु द्वे देवास इह मादयन्तामों प्रतिष्ठा ॐ हृदयाय नमः ॐ अभोजनी समिराजनानां प्रतिधेनुमिवायति मुखासं माधवा इव प्रवया मुह्यानाः प्रवानवः विश्रदेना समश्च ॐ शिरसि स्वाहा ॐ मूलानन्दिवो हरदिन्द्रिया वैश्वानर्मितहायातमग्निम् हरिवं सम्राजमतिसिंहनामा सन्नापात्रम् जनयन्त देवाः ॐ शिवाय वसत् ॐ मर्माणि ते वर्मणा कादयामि सोम स्वाराजा मृतेनानुवताम् गुरोर्वरीयो वरुणते कृणोतु जयन्तम् स्वानुदेवा मदन्तु ॐ कवचाय ॐ ॐ विश्वतशकृत विश्वतो मुखो विश्वतो बाहुरुत विश्वतपात सम्बाह्यान्धमति सम्पतते या वा भूमि जनयन् देव एकाः ॐ नेत्रत्राय वोतर ॐ मानसो केतनये मान आयुधि मानो गोकुमानो अग्रेतुरीरिका मानो धीरान्द्रभामिनो वदीर्यमन्तः सदमि स्वाहवामहि ॐ अस्त्राय फट् ॐ ध्याये नित्यं मयि संरक्तिगिर्निभं चारुचन्द्रावतंसम् रत्नाकलकोज्वलान्नं परसुमृगवराभीतिहस्तं प्रसन्नम् पद्मासीनं समन्तातिसुतममरगणीर्व्याघ्रकीर्तिं वसानम् विश्वाद्यं विश्वन्यं निखिलवयारं पञ्चवक्रं त्रिनेत्रं नमः पार्वतीपतये हर हर महादेव अथ प्रथमोऽध्यायः ॐ गणानां त्वा गणपतिगुं भवामहे प्रियाणां त्वा प्रियपतिगुं भवामहे निधीनां त्वा निधिपतिगुं भवामहे वसो मम आहमजानि गर्वधमा त्वमजासि गर्वधं मा गायत्री त्रिषु जगत्यनुषु पञ्चातः बृहत्सृणीयातपुजीभिः संयन्तु त्वा द्विपदा सा तत्पदा त्रिपदा सा सर्वदाः द्विछन्दाया शतछन्दाः सूजीभिः संयन्तु त्वा सोमाः सषन्दसा पिता सादरमारिकयः स्वतदेव्याः पूर्वेकाम् पञ्चामन्विषधीर अन्वालीभिरेरधियो नरसिन्न ॐ जजाग्रतो दूरमुरैति दैवम् तदुसुतजत दैवेति दूरङ्गमञ्ज्योतिमाञ्ज्योगिरे कञ्चन्मे मनः शिव सङ्कल्पमसु येन कर्माण्यपतो मनीषिणो जनेतृण्वन्ति विदधि उधीराः जलपूर्वम् विषमन्तः सजानान्तन्मे मनः इव सङ्कल्पमसु सजानम् सचेतो कृतिसज्योतिरन्तरमृतम् प्रजातु चिन्तन कर्म क्रियते तन्मे मनः इव सङ्कल्पमसु येनेदम् भूत भुवनम् भविष्यपरिवेतमृतेन सर्वम् येन जयतायते शतहूत तन्मे मनः शिव सङ्कल्पमसु यस्मिन् ऋजः सामजो गुपि तस्मिन् प्रतिष्ठित तदनाभाविवारः तमिषितं सर्वमोतं प्रजानां तन्मे मनः शिव सङ्कल्पमसु ऋहारतिरत्वा निवजन्मान्द्यानीयते हेतुभिवाजिनैवारिपतिशं जरधिरधविषं तन्मे मनः शिव सङ्कल्पमस्तु
अथ द्वितीयोऽध्यायः ॐ सहस्रपीरिता पुरुषः सहस्राक्षः सहस्रपादा सभूभिघुम् सर्वतसृत्वा चतिषदताङ्गुलम् पुरुषै वेदघुम् सर्वम् जभूत शतपाव्यम् मा उपामृतमपि सानो ददन्नेनाशिरोहति एतावानस्य महिमातो जानास्व पूरुकः पादो च विश्व भूतानि त्रिपादस्यामृतम् दिवि त्रिपादूर्व उदयपूरुकः पादो देहा भवत् पुनः ततो विभञ्जग्रामस्व सनानपने अभीततो विराटजायत विराजो अधिपूरुषः सजातो अध्यर्य तपसा भूमिमत पुरः समादिया सर्वहुतः संभृतम् एकदायर्मा वसंसासकैवायविला नारण्या ग्राम्याश्चमादिया सर्वभूतरिचः सामानि जगनिरे छन्दाकृति जगनिरे तस्माजु तस्मादजायत तस्मादत्वा अजायन्तरेकेश भयादतः गावो हजगिरे तस्मात्मादात अजावयः सञ्जयम्बरीकिप्रोक्षत् पुरुकन्दातमद्रतः तेन देवा अयजन्तसाच ीतर्पुरुकम् यदतुः कथिद व्यकल्पयन्नामुखम् किमस्याति किम् बाहु किमूरुपाद उचेते ब्राह्मणो च मुखमासि बाहूराजन्यः कृतः ऊरु तद्यद्वैद्यात्सूत्रो अजायत चन्द्रमा मनसो जातसख्योः सूर्यो अजायत श्रोत्राद्वायुस प्राणसमुप निरजायता नाव्या आसीदन्तरिक्षम् कृष्णाद्योः समवृतत द्रव्याम्भोमृदि सह श्रोत्रातत लोकान् अकल्पयन्नाजपुरुषेणाविक देवाज्यमतन्वता वसन्तो व्यासि राज्यम् ग्रीष्मजमः शरदविः सता स्यासन् परिदयश्री शततमिदः कृताः देवाजयन्तन्वान अवदनन् पुरुकम् पटुम् जगनेन जियमयजन्तदेवास्मानि धर्माणि प्रथम ज्ञासन्नादेहनाकम् महिमानः सजन्त यत्र पूर्वे शाद्याः सन्ति देवाः हर्यः संहृतः पृथव्यैरसाक्षविश्वकर्मणः समवृतता गृहीतस्य त्वष्ट विदद्रूपमेति सन्मतस्य देव त्वम जानमग्ने भेदाहमेत पुरुकम् महान्तमादित्य वर्णन्तमतः परताता समेव विद्वादि मृत्युमेति नान्यः कन्ताविद्यतीयनाय प्रजापतितरति गवे अन्तरजायमानो बहुधा विजायते तस्य जोनिम् परितस्यन्ति धीरा तस्मिन्नासत्रुवनानि जो देवेभ्यः पतितो देवानाम् पुरोहितः पूर्वो जो देवेभ्यो जातो नमो रुचाय ब्राह्महि ऋचम् ब्राह्मण् जनयन्तो देव अग्रे तद्ब्रुवन्नादत्वैवम् ब्राह्मणो विद्यातस्य देवा असन्वसे श्रीसते लक्ष्मी सपत्न्याम्बहोरात्रे पार्श्वे नक्षत्राणि रूपमपि नो व्यातम् मा इष्णन्निकान ॐ महिखान सर्वलोकम् महिखाना हरिः ॐ मा अथ तृतीयोऽध्यायः ॐ आसुः दिशानो भृगवो न भीमो घनागणः गोमणसर्गणीनाम् सङ्क्रन्दनो निमिकैकवीरः सततुम् चैना अजयत्साकमिन्द्रः सङ्क्रन्दनेन निमिकेण विष्णुना चकारेण ऋषवनेन विष्णुना गदिन्द्रेण जयत सहसम् जुदो नर इकुवसेन विष्णा स इकुवसेः सनिकङ्गि भवति सपुंसृषा सयुध इन्द्रो गणेन सपुंसृषादि सोमप वाउसर्गादिव्रतन्वा प्रदीता विरस बृहस्पती परिदीयारथेन रसोहामिद्रा अपवादमानः प्रवण्डन्तेनाः प्रमिणोद्युदाजयन्नस्मासमेत्य विकारथानामा बलविद्याय स वीरः प्रवीरः सस्मान्वादी सामान उग्रः अभिवीरो अभिसवासोजा चैत्रमिन्द्ररथमाशिष्ट गोविता गोत्रविदम् गोविदम् वज्रबाहुजयन्तमन्मप्रमिणन्तमोदत हिमगुम् सजाता अनुवीराय त्वमिन्द्रभु सकायो अनुतरुम् रमध्वम् अविगोत्राणि सहसा गामानोदयो वीरः सतमन्युरिन्द्रः सुशवनः कृतनाकारयोस्माकुन्तेन अवतु प्रयस्तु इन्द्र आसामेत प्रियसतिदशिना जयः पुरयेतु सोमः देवसेनानाम् अभिवञ्जसीनाम् जयन्तीनाम् मरुतो जन्तुग्रह्मा इन्द्रस्य विष्णो वरुणस्य राजा आदित्यानाम् मरुतपुंसृतौ ब्रह्मा महामनसा भुवनजवानाम् भोगो देवानाम् जयता मुदसात उदरिकय भगवन्नादृतान् सत्त्वानाम् मामसानामनाहुषि उदभृतहन्वाजिनाम् वाजिनामिदसानाम् जयताम् जन्तु गोकाः अस्माकमिन्द्रः समृते कुर्वजे कस्माकम् जायिकवसा जयन्तु अस्माकम् वीरा उतरे भवन्त्वस्मा उदेवा अवताहवेभो अमेकाम्पितम् प्रति लोभयन्ति गृहाण धान्यपेपरे अभिक्रेहि नृदः ऋतुकोकेरन्धेन रात्मसः सकन्ताम् अवसृषा परापत सर्वे ब्रह्म सगुं त्रिते दशामिद्रा प्रपदस्व मामेकाम् कञ्चनोधिकः प्रेता जयता नर इन्द्रो वा कर्म दशतु उग्रावः सन्तु बाहवो न द्विजा जता सत असो जातेनामरुतः पर्येकामवेति न ओजसा स्वदमान साङ्गुहत तमसा पवतेन जपानि अन्यो अन्यन्न जानन्न श्रमाणाः सम्पतन्ति कुमारा ऋतिका इवात इन्न इन्द्रो प्रियसखिरदितिः कर्म दशतु विश्वाः कर्म दशतु कर्माणि ते वर्मणा च दयामिषो मत्वाराजा मृतेन नुवसाम् उरोवरीयो वरुणसे विणोतु जयन्तम् त्व उदीवा वदन्तु चतुर्थोऽध्यायः ॐ विराजिहतिवतु सौम्यम् मर्वायुतरजपतावाविहृतम् वातयूतोजो अविरक्षति मना प्रजाः उपोकपुरुधाभिराजति उर्यम् दातवेदसम् देवम् महन्ति केतवः विषे विश्वाय सूर्यम् येनापावकचक्षसा भुरण्यन्तजना अनुपम् वरुणपत्यसि दैव्या वर्वजु आपतगुम् तथेन सूदपश वर्वाजियगुम् समञ्जाति कम् प्रघ्नतायम् येन चित्रम् देवानाम् कम् प्रघ्नता पूर्वत विश्वसेमता ज्येष्ठता किम्बरिपदगुम् सर्विदम् मा प्रतीतेन मृजन लोहसे मुनिमासु जयन्तमनुजातु वदसे अयम् येन सूर्यकृष्णिग्रवा ज्योतिर्जराजूरजतो श्रीमाने हिममपातुम् सङ्गमे सूदस्यसि सुन्न पितर मतिभिरिहन्ति चिरम् देवानामुदत कनीकम् चक्रुमित्रस्य वरुणस्याग्नेः आप्राजाव पृथिवी अन्तरिषदम् सौष आत्मा जगत सुखश्च आन इडाभिविदते सुखसि विश्वानरः सविता देव एतु अपि जथा ध्रुवानो मत्सदान शिशुवम् जगदभिद्वे मनीषा जगद्यतश विग्रहानुदगा अभिसूचः सर्वम् तदिन्द्रदेवते तरणिर्विश्वदर्शतो ज्योतिस्तिर्दसि सूर्य विश्वम आशिरोचनम् मातसूर्य देवन्तन्महिपम् मर्यातोर्वितरुम् सञ्जवार जदेजयुतः हरितः तदसादाचाद्रीवास्वतनुते श्रीमते संकृत्य वरुणस्य विदते सूर्यौरूपम् कृणुते यौरुपथे अनन्तमन्यदृशस्य पाजः कृष्णमन्यधरितः सम्भरन्ति बर्महा असि सूर्यवर यमः असीमासे ततो महिमा पञ्चतेरा देवमः असि वटूर्द सर्वसामः असि सत्रा देवमः असि मन्हा देवानां पूर्वः पुरोहितो विभुजो चिरदाभ्यम् रायन्त इव सूर्या विश्वेन्द्रस्य वर्षता वसूनि जाते जनमान ओजसा प्रतिभागम् नदीरिम हर्यादेव उदिता सूर्यस्य निरगुंहसः विपृतायवर्यात सैन्यो मित्रो वरुणो मामहन्तमरिति सिन्धुः पृथिवी उत द्यो आक्ष्णेन रजसा गतमानौ निवेशयत् नमृतम् रचन्त हिरण्येन सवितारसेन देवो जाति भुवनानि पश्यन्ना अथ पञ्चमोऽध्यायः ॐ भू ॐ भुव ॐ स्वा ॐ नमस्ते रुद्रमन्यवमुतोत इषवे नमः भाव्यामुतते नमः जाते रुद्रशिवातनूरघोरापापदासिनि दयानसन्वासन्तमया गिरिसन्त इजातसीः जामिखुम् गिरिसन्तास्ते विवर्षत वै शिवाङ्गिरित्रिताम् कुरु माही गुंसीः पुरुषम् जगता शिवेन वचसा त्वा गिरिसा च वदामसि रसा नः सर्वविजगदयमपुंसुमना असता अद्यवोचदिवसा प्रथमो देव्यो विगता अहीत सर्वाञ्जम् भयम् सर्वात्र दातु धान्यो धराजीः परासु वा असौ च साम्रौ अरुणौ तपसो सुमङ्गलः देशेन गुरुद्र अभितो दिशुसृताः सहस्रतो वैखाकुहेडैमयि असोजो वस्रवति नीलग्रीवो विलोहितः उतैनम् गोपा अदृशन्न दृशन्नुदाजः दृशो मिटयाति नः नमोऽस्तु नीलग्रीवाय सहस्रा गमीषुके असोजे अजसत्वानो हन्ति व्योकरम् नमः प्रभुञ्च धन्वनसमुभयो राज्ञोर्जाम् मा जासते हस्त इभवः पराता भगवोपापिदम् ननुः कपदिनो विसल्यो माण्वा उत अन्ये सनस्यदा इखव आपुरस्यमिमम् गतिः जातेः कृमेषु समासे बभूवते धनुः तयास्मान् विश्वसमयत्मया परिभुजा परिते धन्वनो हेतिरस्मान् वृणतु विश्वतः अतो जहि पुरिसवारे अस्मिन्नदेहितम् अवदस्य धनुषवगुम् सहस्राक्षते कुलिशीर्षशल्याना मुखाशिवो नः सुमना भव नमस आयुधाया नाकृताय विष्णवे उभाभ्याम् मुतते नमो भाव्याम् तव धन्वने मानो महन्तमुतमानो अर्वतम् मान उषन्तमुतमानुषितम् मानो वजिः पितरम् मोतमातरम् मानः या सन्नो रुद्ररीरिखः मानस्कोकेतनये मान आयुषिमानो गोपुमानो अस्मे कुरीरिखः मानो वीरान्तभामिनो वदीर्यभिमन्तः तदमित्वा हवामहे नमो हिरण्यबाहवे सेनानि दिशाञ्चपतये नमो नमो वृषेभ्यो हरिकेतेभ्यः बहूनाम् पतये नमो नमः सकिञ्जराय कृकिमते पतीनाम् पतये नमो नमो हरिकेतायो पवीतिने भुषाणाम् पतये नमो नमो बब्लुषाय व्याधिनेनाम् पतये नमो नमो भवते ते जगताम् पतये नमो नमो रुद्रायातसायिने क्षेत्राणाम् पतये नमो नमः सूताय हन्ति वनानाम् पतये नमो नमो रोहिताय पतये वृक्षाणाम् पतये नमो नमो भुवन्तय वायुकृतयो हरीणाम् पतये नमो नमो मन्त्रिणि वाणिताय वृक्षाणाम् पतये नमो नम उतेर्गोकाय क्रन्दय पतीनाम् पतये नमो नमः कृष्णाय प्रयधावते सत्त्वानाम् पतये नमो नमः
कामानाय नित्यादिनात्यादिनीनां पतये नमो नमो विखङ्गिनकपुवाय सेनानां पतये नमो नमो निचिरवे परिचरायारण्यानां पतये नमो नमो वञ्चते परिवञ्चते सायूनां पतये नमो नमो निखङ्गिण इपुरिमते सकराणां पतये नमो नमः शिकायुर्योषिकाकृतव्योमुष्णतां पतये नमो नमो सिमद्यो न सञ्चरद्योमिवृन्दानां पतये नमः नम श्रीकिणे गिरिचराय कुरुञ्जानां पतये नमो नमः इकुमद्यो धन्वायतवो नमो नमः तन्मादिभ्यः प्रतिगतादेजसवो नमो नमः आयसर्योसदृतवो नमो नमो द्वितिजद्यो विजग्रसवो नमो नमः स्वमद्यो जागद्यतवो नमो नमः सयानेभ्य आसीने यसौ नमो नम शिद्रोधावर्यसौ नमो नमः
सवाभ्या सवापतिरसवो नमो नमो श्रेभ्यो स्वपतिरसवो नमो नम आद्यादिनीभ्यो विवदन्तिरसवो नमो नम उणादृतिगुम्हतिरसवो नमो नम गणेभ्यो गणपतिरसवो नमो नमो व्रातेभ्यो व्रातपतिरसवो नमो नमो वृषेभ्यो वृतपतिरसवो नमो नम विरूपेभ्यो विश्वरूपेभ्यसवो नमो नमः सेनाभ्यः सेनानि व्यसवो नमो नमो रथेभ्यो अरथेभ्यसवो नमो नमः ऋजासङ्गिति व्यसवो नमो नमो महर्भ्यो अर्वतेभ्यसवो नमः नमसद्भ्यो रथकारे व्यसवो नमो नमः तुलानेभ्यः कर्मारे व्यसवो नमो नमो निकातेभ्यः सुनिते व्यसवो नमो नमः स्वनिभ्यो मृगैर्व्यसवो नमो नमः स्वव्यापति व्यसवो नमो नमो भवाय शुद्राय च नमः सर्वाय च पशुपतये च नमो नीलग्रीवाय च दिशिगण्डाय च नमः विनेशविभुकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशयाय च त्रिभिषाय च नमो मेदुक्षमाय केकुमदे च नमो हर्वाय च वामनाय च नमो प्रियते च वर्गीयते च नमो वृताय च समृते च नमो ज्ञाय च प्रथमाय च नम आत्मवैचारिणाय च नमः श्रीज्ञाय च दिव्याय च नमः ओव्याय च वसन्याय च नमो नादीयाय च द्वितीयाय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च अपरजाय च नमो मध्यमाय च अपगल्भाय च नमो जगन्याय च पुत्र्याय च नमः गोव्याय च पशुसर्जाय च नमो जाम्याय च क्षेम्याय च नमः लोजाय च वसन्याय च नमः उर्वजाय च कल्याय च नमो वन्याय च कक्षाय च नमः सर्वाय च पटसर्वाय च नमः आसुकेणाय च सुरसाय च नमः क्रूराय च भेदिने च नमो बिल्मिने च कवचिने च नमो वर्मिणे च वरुकिणे च नमः कृताय च कृतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो विष्णवे च प्रमिताय च नमो निखङ्गिणे हे कुदिमते नम तीक्ष्णे कवैतायिने च नमः स्वर्गाय सुगन्मने च नमः कृष्याय च पद्याय च नमो काच्याय च नीत्याय च नमः तुल्याय च सरस्याय च नमो नादीयाय च वैशन्ताय च नमः रूप्याय च वट्याय च नमो भीग्याय च तस्याय च नमो मेघ्याय च विदुष्याय च नमो वर्ष्याय च वर्ष्याय च नमो ऋग्याय च ऋग्न्याय च नमो वासव्याय च वासुपाय च नमः सोमाय च रुद्राय च नमः साम्राय च अरुणाय च नमः सङ्गवै च पशुपतये च नमो उग्राय च भीमाय च नमो ग्रीवदाय च दूरीवदाय च नमो अन्त्रे च अन्यसे च नमो हेभ्यो हरिकेशेभ्यो नमस्ताराय नमः सम्भवाय च मयोभवाय च नमः शङ्कराय च मैत्तराय च नमः शिवाय च शिवतराय च नमः पाशाय च वाचाय च नमः प्रतरणाय चोतरणाय च नमो दीर्घ्याय च पुल्याय च नमः सत्याय च धैन्याय च नमः तिरत्याय च प्रवचाय च नमः लक्षिभूषिलाय च शयणाय च नमः कपर्दिने च कुलसै च नमो गिर्याय च प्रवत्याय च नमो वज्याय च गोच्याय च नमः कल्प्याय च वीज्याय च नमो ऋयाय च निवेक्याय च नमः काच्याय च गवरेक्याय च नमः सुख्याय च हरिक्याय च नमः पामुसव्याय च रंस्याय च नमो लोक्याय च लभ्याय च नमः ओव्याय च सूर्याय च नमः परणाय च परणसदाय च नमो उरुमाणाय च व्यसे च नमः आचिदते च पठित
पृथ्वी धनुष्यो नमो नमो वाहकेभ्यो देवानां मुदेभ्यो नमो विचलतेभ्यो नमो विचलतेभ्यो नम आनिरते चाद्रापेन्द्रपते दरिद्रणी ललोयित आसां प्रदानामेकां पशूनामाभेमारुमोचना किञ्च नाम मतात्मा रुद्राय कवत्रीकप्रदिने जयवीराय पवराम हेमती जपा समसद्विपदे चतुपदे विसंपृष्टं ग्रामे अभिन्ननादुरं मायातेरुरतिवातनुः शिवा विश्वाभेकजे शिवा रुकृतभेकजे दयानो विडजीवति वरिणो रुद्रसे त्रिविणसु परिपेकते दुर्मतिरभायो अवैश्रामभज तनुपाभ्यो सताय तनयाय विडा विडुषम शिवतमो शिवो नहासुमना वापरमे विषमायुधायुधाय कृतिवसानम् आचर विनाकां विव्रता गैरिकिरिन्द्रं विलोहितं नमसि अस्तु भगवः चास्ति सहस्रभू एकयो निमसिंवपन्तु सः सहस्राणि सहस्रतो बाहुस्तयहेतयः सात्वामीशानो भगवः पराजीना मुखाकृति असञ्जाता सहस्राणि ते रुद्राणि भूम्यं मा देवां च त्रयोजने वधन्मानि तन्मते सन्मान्तरणवयन्त्रिषे भवाजि देवां च त्रयोजने वधन्मानि तन्मते नीलग्रीवाः कण्ठादिवपुं रुद्रावकृताः देवां च त्रयोजने वधन्मानि तन्मति नीलग्रीवाः शितिकण्ठाः प्रवाद्या चमाचरः देवां त्रयोजने वधन्मानि तन्मति निर्विचे सकृन्दरा नीलग्रीवा विलोहिताः देवां त्रयोजने वधन्मानि तन्मति भूतानामधिपतयो विशिकाताः कपटिनः देवां त्रयोजने वधन्मानि तन्मति देवतां प्रतिरक्षैर्विदायुधाः देवां त्रयोजने वधन्मानि तन्मति देशानि प्रचरन्ति त्रिकास्तानि कञ्चिणः देहामुतत्रयोजने वधन्मानि तन्मति हेदे कुपिविदन्ति पात्रे कुपिवतो जनानां देहामुतत्रयोजने वधन्मानि तन्मति दायितावन्तत भूयामुतमतिशो रुद्रवितश्री देहामुतत्रयोजने वधन्मानि तन्मति नमोऽस्तु रुद्रेभ्यो जीदिदीर्घां वर्गनिकपः देव्यो दश प्राचीर्दश दक्षिणार्थपतीर्दशो दीर्दशोर्वाः तेभ्यो नमोऽस्तु ते नौ वन्तु ते नौ मिडयन्तु ैकमेकां जम्बेर्मा ॐ स्वः ॐ भुव ॐ भू अथष्टोऽध्यायः ॐ वयपुं सोमवर्ते सौमनसनो विवृतः प्रजावन्तः सजेमहि एकतेरुद्रभागः सुस्वाम्बिकया तञ्जु तस्मै एकतेरुद्रभाग आकृते पशुः अवरुद्रामतीमजदेवतं रतं जथानो वसुतरजथानः त्रियस्तरव्यथानो व्यवसाय्याता एकजमतिवेकजङ्गवेश्वाय पुरुषाय वेगजं मा सुखमेकाय मे क्षेत्रं रतं यजामहि सुगन्धिं पुष्टिवर्धनं मा कुर्वारु ृतोरुक्षीयमामृताः ॐ त्र्यम्बकं यजामहि सुगन्धिं पतिवेदनं मा कुर्वारुकमिव वन्दनान्वितोमुक्षीयमामुतः तते रुद्रावसन्ते परो मुदवतोतिः अवसतधन्वा विनाशा वसः शक्तिवासानैवं सन्नः शिवोतिः त्रायुगं दमदवेः कस्य पश्यत्रायुगं मा जेवे कुत्रायुगं तन्नौ असुत्रायुगं मा शिवो नामासि त्वरितिषे पिता नमसे असु मामायि पुंसिः यायुकेनाजाय पठननाय राय स्मोकाय प्रजात्वाय सुवीर्याय अथ सप्तमोऽध्यायः ॐ उग्रस्व भीम सर्वान्तसध्वनि सहस्वांस विवाच विक्षिपः स्वाहा अग्निगुंहृदये नासनीगुंहृदयाग्रेण पशुपति कृष्णाजेन भोजनात्रमुत्नाद्यामीतानमन्यो नामहादेवमन्तः असव्येनोग्रं देवं मनिषुनावतिशानो सिंहीनिकोष्याभ्यां माग्रं लोहितेन मित्रं सौवर्तेन्द्रुग्रं दौर्वर्तेन नेत्रं परकीडेन बलेन साध्यान् प्रमुद कोटकञ्चकुं रुद्रशान्तः पार्थव्यां महादेवस्य कृतवत्य मनिषोः पशुपतेः पुरी तदा लोमभ्या स्वाहा लोमभ्या स्वाहा क्वचि स्वाहा क्वचि स्वाहा लोहिताय स्वाहा लोहिताय स्वाहा मेघोभ्यः स्वाहा मेघोभ्यः स्वाहा मागुषेभ्यः स्वाहा मागुषेभ्यः स्वाहा नावव्यः स्वाहा स्नावव्यः स्वास्तव्यः स्वास्तव्यः
स्वाहा मय स्वाहा मय स्वाहा ऋतसी स्वाहा पायवी स्वाहा आयासाय स्वाहा प्रयासाय स्वाहा संजाताय स्वाहा व्यासाय स्वाहो व्यासाय स्वाहा भुवि स्वाहा भूतवे स्वाहा भूतमानाय स्वाहा भूकाय स्वाहा भवति स्वाहा तपति स्वाहा तपमानाय स्वाहा सत्ताय स्वाहा धर्माय स्वाहा स्वाहा प्रयासि स्वाहा एकजाय स्वाहा यमाय स्वाहाय स्वाहा ऋषवे स्वाहा ब्रह्मणि स्वाहा ब्रह्मचारी स्वाहा ऋषिभ्यो देवेभ्यः स्वाहा चावा पृथिव्यां स्वाहा अष्टमोऽध्यायः ओम वाज समे प्रसव समे व्यति समे प्रतीति समे धीति समे कसु समे स्वर समे श्लोक समे सर्व समे श्रुति समे ज्योति समे स्व समे जगेन कल्पन्ताम् मारान समे पान समे व्यान समे सुतमे चितम सम आदि सम समे वाचमे मन समे चक्षु समे श्रोतम समे दश समे फलम समे जगेन कल्पन्ताम् महाभोज समे सह सम आत्मा समे तनु समे वर्म समे वर्म समे गायि समे ीनितमे परोभुङ्कितमे शरीराणि तम आयुषमे जराशमे जगेन कल्पन्ताम् महाजैष्यम् च महाधिपत्यम् च मे मनुषमे वामसमे मत्समे वसमे देवा च मे महिमा च मे वरिमा च मे प्रतिमा च मे वटिमा च मे दात्रिमा च मे वृतम् च मे वृतिशमे जगेन कल्पन्ताम् महापत्यम् च मे सदा च मे जगम् च मे धनम् च मे विश्वम् च मे महसमे क्रीडा च मे मोदसमे जातम् च मे जनिकमाणम् च मे दुःखम् च मे सुकृतं च मे येन कल्पन्ताम् माहृतं च मे वृतं च मे यक्षं च मे नामि च मे जीवातु च मे दीर्घायुतं च मे नमित्रं च मे भयं च मे सुखं च मे शयनं च मे शूपा च मे सुखिनं च मे येन कल्पन्ताम् माग्रन्था च मे दर्ता च मे देव च मे कृति च मे विषं च मे महत् मे सन्धि च मे ज्ञातं च मे भूत मे पशु च मे क्षीरं च मे दय च मे येन कल्पन्ताम् माघन्त मे मय च मे प्रियं च मे नुकाम च मे काम च मे मन च मे भगत मे द्रविणम् च मे भद्रम् च मे तेयस मे वदीय च मे दश च मे येन कल्पन्ताम् माक्ष मिल्कूर्णता च मे पयस मे रस च मे घृतम् च मे मल च मे सवि च मे सपीति च मे कृति च मे धृति च मे जयत्रम् च मौर्यम् च मे येन कल्पन्ताम् मा रयि च मे राय च मे पृष्ठम् च मे पुष्टि च मे विदु च मे प्रभु च मे पूर्णम् च मे पूर्णतरम् च मे पूयवम् च मे चितम् च मे नम् च मे कृ च मे येन कल्पन्ताम् मा विदम् च मे वेद्यं च मे भूतं च मे भवित च मे सुखं च मे सुपत्यं च मे ऋतं च मरिति च मे कृलितं च मे कृलिति च मे मति च मे सुमति च मे जगेन कल्पन्ताम् मा क्रियस्त मे दवा च मे माघा च मे किला च मे मुदगा च मे खल्वा च मे दीर्घवत् मे नव च मे श्यामाका च मे भीमारा च मे गोधूमा च मे मसूरा च मे जगेन कल्पन्ताम् मा अस्मा च मे मृतिका च मे गियस्त मे प्रवता च मे त्रिगता च मे वनस्पतय च मे हिरण्यं च मे दश च मे श्यामं च मे लोहं च मे शीशं च मे रप च मे जगेन कल्पन्ताम् मा अग्निसमापस्त मे बृहदस्त मोपदेश मे कृतपत्या च मे कृतपत्या च मे ग्राम्या च मे पसवारण्या च मे गीतं च मे गीति च मे भूतं च मभूति च मे जगेन कल्पन्ताम् मा वसु च मे वसति च मे कर्म च मे सति च मे अर्थ सम एव स मे ज्ञा च मे गति च मे जगेन कल्पन्ताम् मा अग्निसम इन्द्र स मे सोम सम इन्द्र स मे सविता च म इन्द्र स मे सरस्वती च म इन्द्र स मे भूपा च म इन्द्र स मे बृहस्पती च म इन्द्र स मे जगेन कल्पन्ताम् मा रुद्र स म इन्द्र स मे वरुण स म इन्द्र स मे धाता च म इन्द्र स मे दशा च म इन्द्र स मे मरुत स म इन्द्र स मे विश्वे च मे देवा इन्द्र स मे जगेन कल्पन्ताम् मा पृथ्वी च म इन्द्र स मे अन्तरिक्ष म इन्द्र स मे द्यौ स म इन्द्र स मे समा स म इन्द्र स मे नक्षत्राणि च म इन्द्र स मे दिश स म इन्द्र स मे जगेन कल्पन्ताम् मा अवंसु स मे रत्न स मे दाव्य स मे दिपति स मे उपावंसु मेन्द्रजाम स मे इन्द्रवायु समे मैत्रावरुण समे आसिन समे प्रतिप्रसान समे पुत्र समे मन्त्री च मे जगेन कल्पन्ताम् मा आगण समे वैश्वदेव समे ध्रुव समे वैश्वानर समे इन्द्रार्ण समे महावैश्वदेव समे मध्वकीया समे केवल्या समे सार्थ समे सारस्वत समे पार्थिवस समे आर्योजन समे जगेन कल्पन्ताम् मा वृष समे रमसा समे वाय्याय समे द्रोणकर समे ग्रावण समे भीक्मणे समे भूतभृतम आदवनीया समे वेदि समे वति समे वृत समे स्वदाकार समे जगेन कल्पन्ताम् मा अग्निश
समे घर्म समे अर्थ समे सूर्य समे प्राण समे सुने दास समे पृथ्वी समे दिशि समे दिशि समे ज्यो समे गुलया सकरयो दिश समे दिगेन कलवंताम ऋतम तम ऋतव समे तप समे संवत्सर समे होरात्रि उर्वशुवे दृद्र संतरे समे दिगेन कलवंताम एकादशमे त्रिशतमे त्रिशतमे पंचतमे पंचतमे सप्तमे सप्तमे नवतमे नवतम एकादशतमे एकादशतमे द्योदशतमे द्योदशतमे पञ्चदशतमे पञ्चदशतमे सप्तदशतमे सप्तदशतमे नवदशतमे नवदशतम एकविंशतितमे एकविंशतितमे द्योविंशतितमे द्योविंशतितमे पञ्चविंशतितमे पञ्चविंशतितमे सप्तविंशतितमे सप्तविंशतितमे नवविंशतितमे नवविंशतितम एकत्रिंशतमे एकत्रिंशतमे त्रयस्त्रिंशतमे दिगेन कल्पन्ताम् शतशतमे 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 द्वादशतमे द्वादशतमे षोडशतमे षोडशतमे विंशतितमे विंशतितमे चतुर्विंशतितमे चतुर्विंशतितमे अष्टाविंशतितमे अष्टाविंशतितमे द्वाविंशतमे द्वाविंशतितमे षड्विंशतितमे षड्विंशतितमे चत्वारिंशतितमे चत्वारिंशतितमे चतुश्चत्वारिंशतितमे चतुश्चत्वारिंशतितमे अष्टाचत्वारिंशतितमे दिगेन कल्पन्ताम् त्रयस्तमे त्रयस्तमे चत्वारिंशतमे द्वाविंशतितमे पञ्चाशत्तमे पञ्चाशत्तमे त्रिशतमे त्रिशत्तमे त्रिशवार्तमे त्रिशोऽयिकमे दिगेन कल्पन्ताम् अष्टवार्तमे अष्टोऽयिकमे उच्चार्तमे वसार्तमे विकवर्तमे विहस्तमे नरवार्तमे धेनुतमे दिगेन कल्पन्ताम् द्वाजाय स्वाहा प्रसवाय स्वाहा बीजाय स्वाहा प्रसवे स्वाहा वसवे स्वाहा अर्पतये स्वाहे मूलाय स्वाहा मूलाय विनपुंसिनाय स्वाहा विनपुंसिनाञ्चायनाय स्वाञ्चाय भुवनाय स्वाहा भुवनधिपतये स्वाहा अधिपतये स्वाहा प्रजापतये स्वाहा इयं ते राजमित्रायन्ताच्यमनावूतिं त्वं विषये स्वा प्रजानां स्वाधिपत्याय आयुर्जगेन कलन्तां प्राणो जगेन कलन्तां चक्षुर्जगेन कलन्तां स्तोत्रं जगेन कलन्तां वाग्जगेन कलन्तां मनोजगेन कलन्तां आत्माजगेन कलन्तां ब्रह्माजगेन कलन्तां ज्योतिर्जगेन कलन्तां पुत्रजगेन कलन्तां पिष्टं जगेन कलन्तां दिव्यो जगेन कलन्तां सोमस्तजस्तरिगतसां च विजतरसन्तरं चास्वदेवागन्मामृता अहं प्रजापतेः प्रजापो विश्वाहाध्यायः ॐमृतं वाचं प्रपदे मनोजजुः प्रपदे स्वां प्राणं प्रपदे चतुः स्तोत्रं प्रपदे वागोजः गवोजो मयि प्राणापानो जन्मे त्रिरन्तशुतोर्धसमनसौ वाति तृणं ह्यस्वतृणे दधातु तन्नौ भवतु भुवनस दधपतिः भूर्भुवस्वः सत्त्वपितुर्भरिण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् कया नत्र आभुवदूते सदा मृतः सखा कया सचिषया भृता कस्वा सत्यो मदा नामाहु विश्वो मत्पदन्दपः दृढादिदारुजीवसु हविगुणः सजीनामविता दरिद्रणां मा सतं भवा द्यूतिभिः कया सन्तुत्या विप्रमन्दसे विघना कया स्तोत्रिज आभरा इन्द्रो विश्वचराजपि सन्नो अपि विपदे सञ्चतुपदे सन्नो मित्रः संवरुणः सन्नो भवन्प्रजमा सन्न इन्द्रो बृहस्पतिः षण्णो विष्णुरुक्रमः सन्नो वातः पवतानु सन्नस्तपतु सूर्यः सन्नः कनिकद्देवः प्रजन्यो अभिवर्हतु महानिशं भवन्तु नः सगुं रात्रिः प्रतिधीयता मा सन्न इन्द्रादि भवता ममूभिः सन्न इन्द्रा वरुणाराचार्य सन्न इन्द्रा भूषणा वाजपातु समिन्द्रा सोमं सुविताय सञ्जोः सन्नो देविरविषयापो भवन्तु पीतये सञ्जो रविस्रवन्तु नः यो न पृथिविनो भवानिशरानिवेशनीरचानः सर्वसप्रताः आपूष्टामयो भुवसान ऊर्जे ददातनामहीरणाय चतेजो वहतिवतमो रससस्य वाजे देहनः सतीरिव मातरः तस्मा अरङ्गमामवोचत शयाय जिन्वता आपूजनयता जनाः योः शान्तिरन्तरिषगुं शान्तिः पृथिवी शान्तिरापः शान्तिरोभगयः शान्तिः वनस्पतयः राज्यविश्वे देवाः शान्तिभ्रमशान्तिः सर्वगुं शान्तिः शान्तिरेव शान्तिः भामा शान्तिरेधि धृते त्रिगुणमामित्रस्यामां चतुपा सर्वाणि भूतानि समीक्षन्तां मा मित्रस्या चतुपा सर्वाणि भूतानि समीक्षे मित्रस्या चतुपा समीक्षामहे धृते त्रिगुणमाजोक्ते संहृतिजिव्या संयोक्ते संहृतिजिव्या सम्मा नमसे हरते सोजिके नमसे असृजिके अन्यासे अस्मत्पन्तु हेतयः पावको अस्मव्यगुं शिवो भव नमसे अस्तु विदुते नमसे स्त
तनिष्णवे नमसे भवनस्तयतः त्वा समीहसे यतो यतः समीहसे ततो नो अवयम् कुरु तन्नः कुरु प्रजाभ्यो भयन्नः वसुयः सुमित्या न आपोपदयः सन्तु दुर्मित्या तस्मै सन्तु जोऽस्मान् वैश्चिदम् दम् वयम् कृत्वा कृते वहितम् पुरसा कृतमुचरसा कसेम शरदः ततम् जीवेम शरदः शतम् शृणुयाम शरदः ततम् प्रवाम शरदः ततमदीनाः याम शरदः ततम् भूयस शरदः सतातः अथ स्वस्ति प्रार्थना मन्त्राः हरि ओम् मा स्वस्ति न इन्द्रो बृहस्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति न सारिषो अरिषनेमिः स्वस्ति नो बृहस्पतिर्दधातु ओम् पयः पृथिव्याम् पय ओषधीभुपयो दिव्यन्तरिके पयो राः पयस्पतिः प्रदिशः सन्तु मदियम् मा ओम् विष्णोरराटमसि विष्णोः तनपुत्रे स्वो विष्णोः द्योरसि विष्णो ध्रुवोऽसि वैष्णवमसि विष्णवे अग्निर्देवता पातु देवता सूर्यो देवता चन्द्रमा देवता वसवो देवता रुद्रा देवता विद्या देवता मरुतो देवता विश्वे देवा देवता बृहस्पतिर्देवतेन्द्रो देवता वरुणो देवता ॐ सद्यो जातम् प्रवद्यामि सद्यो जाताय वै नमो नमः भवे भवे नाति भवे भवत्य माम् भवोद्भवाय नमः ॐ वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलवितरणाय नमो बलवितरणाय नमो बलाय नमो बलरत्नाय नमः सर्वभूतमनाय नमो मनोन्मनाय नमः अभूरिभ्यो सभूरिभ्यो भोर्भोर्षैभ्यः सर्वेभ्यः सर्वसर्षेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः सत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् ईशानः सर्वविद्यानामीश्वरा सर्वभूतानाम् ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु सदा शिवो मा ॐ शिवो नामासिपतिसेविता नमसे अस्तु मामाहि पुंसीः निवचयाम्यायुके नायाय प्रजननाय राय स्वोपाय प्रजापाय सुवीर्याय ॐ विश्वानि देव पवितृदुरितानि परासु वाचदरन्तर्न आसु वाच ॐ योः शान्तिरन्तरिक्षम् शान्तिः पृथिवी शान्तिरापः शान्तिरोपदयः शान्तिः वनपदयः शान्तिर्ष्वे देवाः शान्तिर्ब्रह्म शान्तिः सर्वकम् शान्तिः शान्तिरेव शान्तिः श्यामा शान्तिरेधि ॐ सर्वेषाम् ऐर्वेदानम् प्रसोजस्वाम सर्वेषामेवेदवेदानम् प्रसेनाभिकिञ्चति ॐ शान्तिः शान्तिः शान्तिः।